जातस्य ध्रुवकुलयेव तुंगकीर्तेः अंगस्य व्यजनिसुतः सबेन नामा तद्दोषव्यथितमतिः सराजवर्यः त्वत्पादे निहितमनाः वनं गतोऽभूत् पापोऽपि क्षितितलपालनायवेनः पौराद्यैः उपनिहितः कठोरवीर्यः सर्वेभ्यो निजबलमेव संप्रशंसन् भूचक्रे तव यजनानि अयं न्यरोत्सीत् संप्राप्ते हितकथनाय तापसौघे मत्तोऽन्यो भुवनपतिः न कश्चनेति त्वन्निन्दावचनपरो मुनीश्वरैस्तैः शापाग्नौ शलभदशाम् अनायिवेनः तन्नाशात् खलजनभीरुकैर्मुनीन्द्रैः तन्मात्रा चिरपरिरक्षिते तदङ्गे त्यक्ताघे परिमथितात् अथो रुदण्डात् दोर्दण्डे परिमथिते त्वमाविरासीः विख्यातः पृथुरिति तापसोपदिष्टैः सूताद्यैः परिणुत भाविभूरिवीर्यः वेनार्त्या कबळितसम्पदं धरित्रीम् आक्रान्तां निजधनुषा समाम् अकार्षीः भूयस्तां निजकुलमुख्यवत्सयुक्तैः देवाद्यैः समुचितचारुभाजनेषु अन्नादीनि अभिलषितानि यानि तानि स्वच्छन्दं सुरभितनूम् अदूदुहस्त्वम् आत्मानं यजति मखैः त्वयि त्रिधामन् आरब्धे शततम वाजिमेधयागे स्पर्धाळुः शतमख एत्यनीच वेषः हृत्वाश्वं तव तनयात् पराजितोऽभूत् देवेन्द्रं मुहुरिति वाजिनं हरन्तं वह्नौ तं मुनिवरमण्डले जुहूषौ रुन्धाने कमलभवे क्रतोस्समाप्तौ साक्षात्त्वं मधुरिपुं ऐक्षथाः स्वयं स्वं तद्दत्तं वरमुपलभ्य भक्तिमेकां गङ्गान्ते विहितपदः कदापि देवा सत्रस्थं मुनिनिवहं हितानिशंसन् ऐक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् विज्ञानं सनकमुखोदितं दधानः स्वात्मानं स्वजमगमो वनान्तसेवी तत्तादृक्पृथुवपुरीश सत्वरं मे रोगौघं प्रशमय वातगेहवासिन् सत्वरं मे रोगौघं प्रशमय वातगेहवासिन् ॐ तत्सदिति श्रीमन्नारायणीये अष्टादशं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।